येन धौता गिरपुंसां विमलैः शब्दवारिभिः समश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः आसीत् तत्र हलन्तशब्दानां सप्तसु विभक्तिषु प्रयोगाः इति। तस्मिन् विषये वयं पाठम् अपि पठितवन्तः। तत्र पुटसङ्ख्या अस्ति 32-33 मध्ये। तत्र किञ्चित् अभ्यासं कुर्मः तत्र पाठस्य विषये। तत्र इदानीं तत्र केवलम् अभ्यासार्थं तत्र स्वशब्दैः वक्तव्यम् इति कृत्वा अतः तत्र अस्तु। तत्र शोभा भगिनी आरम्भं करोति वा? भगिनी तत्र परिशीलितवन्तः पाठं गतवर्गे, तत्र 32 पेज् मध्ये यत् पुटे यद् अस्ति, यः पाठः अस्ति, किन्तु तत्र किं प्रथमवाक्यत्रयं चतुर् तत्र अथवा वाक्यत्रयम् इति स्वीकृत्य तत्र किञ्चित् विवृणोति वा भगिनी? तत्र व्याकरणदृष्ट्या न, किन्तु स्वशब्दैः।
अस्तु महोदय। तत्र एकं कथं न विकम्पितुम् अर्हसि इति शिशिकायाः, तत्र एकस्मिन् राज्ये एकः राजा राज्ये आसीत्। सः तस्य बहूनि गुणानि श्लाघनीयाः आसन्।
श्लाघनीयानि गुणानि आसन्।
श्लाघनीयानि गुणानि गुणानि अस्ति महोदय, किन्तु तेन सम्पन्नः, गुणसम्पन्नः इति
अस्तु अस्तु अस्तु, किन्तु भवती तत्र तस्य इति उपयोगः
तस्य महोदय, तदनन्तरं परिवर्तनं कर्तुं
अतः सः श्लाघनीयैः गुणैः
श्लाघनीयैः गुणैः सम्पन्नः आसीत्। यथा सः नीतियुक्तः, अपि च शास्त्रविद् इत्युक्ते पण्डितः अपि आसीत्। तत्र धार्मिक सः सर्वदा धर्मेण एव, सः धर्मे एव चरि
पालयति अथवा धर्ममार्गे मार्गे एव मार्गे चलति।
चरन् आसीत् इति भवति वा?
चरन्, हा चरन् आसीत्,
चरन् आसीत्,
चरन् आसीत्। केवलं तत् सः एकवारमेव धर्मस्य तत्र धर्ममार्गे गतवान् इति नास्ति खलु? तत्र गच्छन्नेव अस्ति, गच्छन्नेव अस्ति, अतः
चरन् आसीत्। अथवा तत्र सः
तत्र धर्मस्य पालनं कुर्वन् आसीत् इति अपि,
अपि धर्ममार्गे एव चरति स्म इति अपि भवति किल महोदय?
सत्यं सत्यं भगिनि, समीचीनं।
तत्र तस्य यशः येन तेन कारणेन सः सर्वत्र बहु प्रसिद्धः आसीत्।
सर्वत्र तत्र सर्वत्र इति न भवति, यतोहि तत्र सर्वत्र किम् अस्ति, तत्र कीर्तिः सर्वत्र भवति, किन्तु सः तु सर्वत्र नास्ति खलु?
सर्वत्र प्रसिद्धः इति न भवति वा महोदय? सर्वत्र प्रसिद्ध यथा किमपि अस्ति चेत् एतत् कार्यक्रमं सर्वत्र प्रसिद्धः अभवत् इति न भवति वा?
सर्वत्र प्रायशः अस्तु अस्तु भगिनि, प्रायशः भवति, चिन्तनीयमस्ति, किन्तु स्वीकुर्मः, अस्तु भगिनि, अङ्गीकुर्मः, अस्तु।
ख्यातिः सर्वत्र व्याप्तं
व्याप्ता व्याप्ता आसीत् तत्र ख्यातिः
सर्वत्र व्याप्ता
इति समीचीनम्
अग्रिमं करोमि वा
अस्तु तावत् प्रायश अस्तु भगिनि
तत्र त्रीणि अभवत्
त्रीणि अभवत् अस्तु भगिनि अग्रिम अपि तत्र विषयभेद इदानीं तत्र विषयान्तरं मन्त्री इति आगच्छति समीचीनमेव
अस्तु धन्यवादः
धन्यवादः भगिनि गीताञ्जलि भगिनि नमस्कारः सुजाता भगिनि नमस्कारः
नमस्ते महोदय
नमस्कार भगिनि अचिन्तम् अस्तु भगिनि पुटसङ्ख्या अस्ति 32 अस्तु इदानीं तत्र उषा भगिनी इदानीं मन्त्री इति विषयः किञ्चित् वदति वा तत्र तत्र यावत्पर्यन्तम् इति तत्र प्रायश राजा पालयति स्म इति
तावत्पर्यन्तं मन्त्री
ततः पालयति स्म इति तावत्पर्यन्तं
तस्याः राज्यसभायां कश्चन मन्त्री
इति कः
तस्य तस्य राज्यसभायां मन्त्री एकः मन्त्री विद्वान् विवेकिनः श्रद्धावान् गुणानि कथं महोदय वदनीयम् एतानि गुणानि
किन्तु तत्र विद्वान् इति गुणं नास्ति भगिनि तत्र विद्वान् इति एव विशेषणम् अस्ति तत् गुणं नास्ति
विद्वान् विवेकी श्रद्धावान् मन्त्री
अतः तत्र अत्र गुणम् इति वक्तुम् इच्छति चेत् किं किं वक्तव्यम् अत्र
विद्वान् विवेकी
विद्वान् इति तत्र तस्मिन् तत्र विद्वान् इति इत्युक्ते तस्मिन् ज्ञानं तस्य ज्ञानम् आसीत् अथवा तस्मिन्
ज्ञानम् अधिकं ज्ञानम् आसीत्
विवेकः अपि आसीत् तस्य
विवेकः ज्ञानिनः
न ज्ञानिनः इति भिन्नं ज्ञानमस्ति तस्मिन् ज्ञानम् अथवा तस्य अथवा तस्मिन् ज्ञानमस्ति विवेकः अस्ति
विवेकः अस्ति श्रद्धावान् अपि आसीत्
श्रद्धावान् अपि आसीत् न तस्मिन् इति वक्तुं गुणम् इति स्वीकरोति चेत् तस्मिन् श्रद्धा अपि आसीत्
तस्मिन् श्रद्धा अपि आसीत्
श्रद्धा कस्य कृते आसीत् श्रद्धा
कश्चन मन्त्री विद्वान् विवेकी श्रद्धावान् च आसीत्
किन्तु कस्य कृते श्रद्धा आसीत् तस्य
राज्ञः
समीचीनं भगिनि राज्ञः
कृते
राज्ञः कृते बहु समीचीनं राज्ञः कृते श्रद्धा तस्य
तस्य आसीत्
अग्रे
ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालय राजा राज्यं पालयति अनुसृत्य
मन्त्रिणः
उपदेशम्
अनुसृत्य पालयति
अनुसृत्य राजा राज्यं पालयति
पालयति स्म
पालयति स्म
अस्तु भगिनि समीचीनं अस्तु एतादृश अभ्यासः यदि भवति बहु लाभः अस्ति यतोहि तस्मात् स्वशब्दैः यदि वदामः तत्र वाक्ये किं कानि तत्र पदानि सन्ति के के अंशाः सन्ति व्याकरण अंशाः एतत् एतेषां सर्वेषां तत्र अवगमनं समीचीन अवगमनं भवति शुभदा भगिनी नमस्कारः धन्यवादः भगिनि शुभदा भगिनी नमस्कारः
नमस्कारः महोदय
अस्तु अग्रे पुटसङ्ख्या अस्ति 32 भगिनि अस्तु अग्रे वेदा भगिनी अग्रे वदति वा भगिनि
हा महोदय तस्य प्रजाजनाः
राज्यम् आसीत् तत् राज्यं तावत् पर्यन्तं भगिनि
कुत्र राज्यं
तत् राज्यं तावत् पर्यन्तं
तस्य प्रजाजनाः गुणिनः धर्मनिष्ठाः कर्मशूराश्च आसन् ओके राज्ञस्य प्रजाजनाः राज्ञः प्रजाजनाः ते सर्वे बहु गुणिनः धर्मनिष्ठ किमर्थम् उक्तं
तत्र किञ्चित् परिवर्तनं करणीयं स्वशब्दैः वक्तव्यं तत्र यदस्ति
नमस्कारः महोदय
लक्ष्मी भगिनी नमस्कारः भगिनि चिन्ता मास्तु
धर्मनिष्ठाः कर्मशूरश्च
इदानीं किञ्चित् परिवर्तनं करोतु तत्र
गुणी धर्मनिष्ठः कर्मशूरः इति उक्तं वा प्रजाजनाः इति
गुणिनः स्थाने गुणवान् इति स्वीकरोतु तत्र किं भवति
राज्ञः प्रजाजनाः गुणवान् धर्मनिष्ठावान्
तत्तु एकवचने अस्ति जनाः इति
गुणवन्तः
हा समीचीनं हा
गुणवन्तः धर्मनिष्ठावान्
धर्मनिष्ठाः स्थाने धार्मिकाः इति वदतु खलु तादृशं केवलं सरलपरिवर्तनं करोति चेत् सुलभः अपि अस्ति
धार्मिकाः अतः धार्मिकाः च कर्मशूराः किं वदन्ति
तत्र कर्म इति पदस्य सप्तमी बहुवचनं किम् अस्ति कर्मकर्मणि कर्माणि प्रथमविभक्ति सप्तमीविभक्ति बहुवचनं किम् अस्ति
सप्तमीविभक्ति बहुवचनमस्ति कर्मणि कर्म किम् अस्ति कर्मसु वा
समीचीनं कर्मसु 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 शूराः आसन्
कर्मसु शूराः आसन् ओके शूराः आसन्
निपुणाः निपुणाः आसन्
निपुणाः आसन् कृषकाः वणिजः भिषजः शिल्पिनः कुविन्दाः चर्मकाराः सर्वेपि धर्म अनुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म सर्वे जनाः कृषकाः इत्युक्ते कृषिकर्मणाः इति वक्तुं शक्नोति वा कृषकर्मणाः
यत् यत् भवती जानाति तद् उपयुज्य वदतु
कृषकर्मणाः
कृषिवलाः इति कृषिवलाः
कृषिवलाः वा कृषिवलाः कृषिवलाः वणिजः वणिजः वणिक् वणिक् लोकस्य न जानामि
अस्तु तत्र यदि न जानाति तत्र यत्र जानाति तत्र करोतु न जानाति चेत् चिन्ता मास्तु
भिषजः शिल्पिनः
भिषजः तु जानाति भिषजः तु अन्यपदं जानाति भवति
भिषजः वैद्यः
इति
वैद्यः न वैद्याः वैद्याः शिल्पिनः शिल्पिनः इत्युक्ते किं वदामि आर्टिस्ट् किं शिल्पिनः
अस्तु यत्र जानाति तत्र वदतु यत्र शिल्पिनः
कुविन्दाः इति तन्तुवायाः चर्मकाराः सर्वेपि धर्म अनुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति एतानि सर्वाणि
एते सर्वे
धर्मस्य पालनं करोति सोरि धर्मस्य पालनं कुर्वन्ति स्म स्वस्य कर्म स्वस्य कर्मणि एव स्वस्य कर्माणि निर्व्याजम् इत्युक्ते हानेस्ट् निर्व्याजं किं किं भगिनि
प्रामाणिक अथवा निष्ठया
निष्ठया
यत् कार्यं करणीयं तत् निष्ठया कुर्वन्ति
स्वच्छमनसेन
सत्सत्यम् अतः यत् भवती जानाति तद् उपयुज्य वदतु हा समीचीनं
निष्कपटं निर्वहन्ति स्म अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्यम् एतस्य कारणेन
एतेन कारणेन
एतेन कारणेन तत्र राज्ये बहु सम्पदा सम्पदा युक्तमासीत्
तत्र राज्ये इति सप्तमी स्वीकृतं भवत्या अथवा राज्यं
राज्यं सर्वसम्पदा युक्तम्
आसीत् समीचीनं तावदेव भगिनि तत्र सर्वत्र करणीयम् इति नास्ति किन्तु यत्र कुत्रापि तत्र कुर्मः लाभः किन्तु यद्यपि किन्तु तत्र कथायामेव तत्र अन्यत्र पदानि सन्ति चेत् तानि पदानि उपयुज्य अपि वक्तुं शक्नोति अतः तत्र
धन्यवादः महोदय
समीचीनमेव आसीत् भगिनि चिन्ता मास्तु अस्तु अग्रे गीताञ्जलि भगिनि
नमस्ते महोदय
वंशी सुधा भगिनि नमस्कारः भगिनि पुटसङ्ख्या 32 अस्ति भगिनि
नमस्ते महोदय
नमस्कार भगिनि
सरितः सरांसि च जलपूर्णानि भवन्ति स्म सरितः इत्युक्ते
नद्यः
सरोवराणि
तत्र सरोवरः इति प्रायशः अस्ति पुल्लिङ्गे अस्ति इति मन्ये
सरोवर पुल्लिङ्गं वा नपुंसकलिङ्गं मन्ये
न स्मरामि तत्र कोऽपि जानाति वा
एकनिमेषं महोदय
नपुंसकलिङ्गम् अपि अस्ति पुल्लिङ्गमपि अस्ति अस्तु सरोवराणि
पूर्णानि वर्तन्ते स्म
अस्तु तत्र केन पूर्णानि
जलेन
पूर्णानि
वर्तन्ते स्म जलेन नास्ति चेत् अपि समीचीनं न महोदय पूर्णानि इत्युक्ते
अस्तु अस्तु भगिनि अहं केवलं पृष्टवान् सत्यमेव एतत् सर्वम् अभ्यासार्थं तावदेव अस्तु
न पुनः वदामि राज्ये नद्यः सरोवराणि जलेन पूर्णानि वर्तन्ते स्म इति
समीचीनमेव
अस्तु फलपूर्णेषु शाखिषु पक्षिणः महत्या मुदा विहरन्ति स्म किं वृक्षेषु ये वृक्षेषु फलेषु
न फलेषु न फलपूर्णेषु वृक्षेषु
वृक्षेषु फलपूर्णेषु आसीत् तेषु बहवः पक्षिणः
पक्षिणः इति तत्र खगः इति अपि अस्ति खगः
बकः खगाः भोजनं न भोगं
न मुदा विहरन्ति स्म तत्र तत्र आनन्दम् अनुभवन्ति स्म इति तादृश तत्र सन्तोषेण विहरन्ति स्म इतस्ततः गच्छन्ति स्म तत्र
महान् आनन्दम् अनुभवन्ति स्म
महान् तत्र तत्र महान् आनन्दः इति भवति किन्तु तत्र महान्तम् आनन्दम् इति भवति खलु महान् आनन्दः इति यदि भवत्या स्वीकृतम् अस्ति तत्तु प्रथमविभक्तौ अस्ति इदानीं द्वितीयविभक्तौ भवान् किं भवति भवन्तं महान् महन्तम्
महन्तम् आनन्दम् अनुभवन्ति विहरन्ति इत्युक्ते अटन्ति
अटन्ति हा तत्र वृक्षेषु अटन्ति स्म हा समीचीनं भगिनि हा
अटन्ति
रोमिङ्ग् इति अर्थे तत्र हा विहारं विहारं कुर्वन्ति स्म
डयन्ति अपि अस्ति न
महोदय तत्र डयन्ति तत्र आकाशे डयन्ति अत्रापि तत्र इतस्ततः गच्छन्ति स्म इति तत्र तत्र साधारणतया तत्र विहरन्ति इत्युक्ते जनाः विहरन्ति इति भिन्नम् अस्ति अपि पक्षिणः विहरन्ति इति भिन्नम् अस्ति यतोहि ते तु डयन्ते एव वयं तु न डयामः अग्रे
महोदय एकः प्रश्नः फलपूर्णेषु शाखिषु इति तत्र फलिताः वृक्षाः इति वक्तुं शक्नुमः वा सम्यक् अस्ति वा
फलिताः इति तत्र न भगिनि यतोहि तत्र फलितं फलमेव फलितं भवति न तु तत्र वृक्षः अतः तत्र
किमपि कार्यम्
इत्युक्ते फलितः इति किं विवृणोति इत्युक्ते तत्र फलं विवृणोति फलस्य फलस्य स्थितिं विवृणोति खलु
यदि यथा फलितं कार्यम् इति वक्तुं शक्नुमः
फलितं कार्यं हा कार्यं फलितं तत् किन्तु कार्यं फलितं किन्तु तत्र फलितवृक्षः इत्युक्ते तत्र किञ्चित् क्लेशः भवति इति मन्ये
तत्र अर्थः भिन्नः भवति
भिन्नः भवति
धन्यवादः
समीचीनमेव भगिनि हा अतः तत्र फल तत्र हा तत्र फलैः पूर्णाः शाकिनः अत्र अस्तु समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि
अस्तु महोदय सर्वदिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म सर्वदिशः इत्युक्ते अन्य सर्वे अन्य सर्वेष् सर्वदिशः इत्युक्ते अन्य किं राज्ये
न न सर्वदिशः तत्र अस्तु राज्यम् इति स्वीकरोति चेत् किं भवति राज्येभ्यः सर्वेभ्यः राज्येभ्यः राज्येभ्यः
सर्वे अन्ये राज्येभ्यः
न न सर्वे इति केवलं सर्वे न सर्वेभ्यः इति खलु
सर्वेभ्यः अन्येभ्यः राज्येभ्यः
अस्तु 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 हा
किं
जनाः तत्र आगत्य
जनाः पर्यायवाचि महोदय इत्युक्ते
प्रजाः
सम्पन्नराज्यं सम्पन्नराज्यं प्राप्नुवन्ति स्म
किं 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 पुनः भगिनि तत्र जनाः इति तत्र प्रजाः अथवा व्यक्तिः अपि स्वीकर्तुं शक्नोति तत्र व्यक्तिः अस्ति चेत् तत्र भवति
व्यक्तिः इत्युक्ते
हरिः हरिः हरयः व्यक्तयः व्यक्तयः
सर्वेभ्यः अन्येभ्यः राज्येभ्यः व्यक्तयः तत् सम्पन्नं राज्यम्
तत्र अस्तु तत्र सम्पत् सर्वसम्पन्नं राज्यम् इति
सर्वसम्पन्नं राज्यं क्षम्यतां महोदय सर्वसम्पन्नं राज्यं प्राप्नुवन्ति स्म
अस्तु प्राप्नुवन्ति स्म तत्र आगच्छन्ति स्म अस्तु समीचीनं अन्तिमवाक्यं
अस्तु ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म. अस्तु ये ये प्रजाः ये ये नराः नराः इति समीचीनं महोदय. अस्ति वा
किं भगिनि
नर इत्युक्ते पुरुष एव
पुरुषः आमां सत्यं भगिनि
तत्तु समीचीनं नास्ति.
व्यक्तयः पुनः व्यक्तयः
इति ये ते व्यक्तयः तत्र आगत्वा नगरं परिशील्य सन्तुष्टेन तत्र
सन्तोषेण
महोदय दोष सन्तोषेण तत्र निवसन्ति तत्र तिष्ठन्ति एव
तिष्ठन्ति. अस्तु समीचीनं भगिनि अस्तु तावदेव समीचीनम् अस्तु.
आगत्य अस्ति वा आगत्वा अस्ति वा महोदय तत्र
महोदय एतत् सर्वं वयं पूर्वस्मिन् वर्गे कृतवन्तः खलु.
सत्यं भगिनि केवलम् अभ्यासार्थं स्वशब्दैः स्वशब्दैः वक्तव्यम् इति तावदेव तत्र वदतु भगिनि.
अपि च अग्रिमं परिच्छेदमपि
हा इदानीं तदेव कुर्मः सत्यं तत्र तत्र पाठः तत्र कथां समापितवन्तः वयं हा किन्तु तत्र केवलं स्वशब्दैः इदानीं तत्र किञ्चित् यदि वदामः अभ्यासः भवति इति अतः स्वीकृतः तावदेव.
अस्तु महोदय
किन्तु अस्तु तर्हि इदानीं तत्र श्रीप्रिय भगिनी नमस्कारः.
नमस्कारः
चिन्ता मास्तु भगिनि चिन्ता मास्तु. अस्तु नरेश महोदय तत्र भवान् गतवर्गे नासीत् किन्तु तत्र किञ्चित् करोति वा महोदय. अस्तु अतः तत्र अतः कदाचित् शत्रुः युद्धार्थम् आगतवान् इति तत्र वाक्यद्वयं स्वीकरोति वा तत्र वाक्यत्रयं
आं महोदय. तत्र एकः अन्य राजा सः एतत् राज्ये आक्रमणं कृतवान्
राज्यस्य उपरि राज्यस्य उपरि आक्रमणं कृतवान्
आक्रमणं कृतवान् एतत् राज्यस्य राजा न सिद्धः आसीत् ततः सः पराजितः
अथवा तत्र जयं न प्राप्तवान् सः एषः राजा जयं न प्राप्तवान्
तदा सः राज्यस्य
बहिः गच्छति केन सह गच्छति
मन्त्रिणा सह
तत्र राज्यं राज्यस्य बहिः गच्छति अथवा राज्यं त्यजति
अत मन्त्रिणा सह बहिः गतवान्
बहिः गतवान् तत्र अपि तत्र किञ्चन वनं प्राप्तवान् इति स्थाने सः
सः एकं वनं
अथवा अरण्यम्
अरण्यं गतवान् मन्त्रिणा सह एकं वनं गतवान्
तत्र राज्यतः अथवा राज्यतः सः मन्त्रिणा सह राज्यतः राज्यतः इति पञ्चमी राज्यतः सः राजा मन्त्रिणा सह एकम् अरण्यं प्राप्तवान् गतवान् समीचीनं महोदय धन्यवादः अस्तु अस्तु धन्यवादः महोदय अस्तु अग्रे शुभदा भगिनी भवती वदति वा अग्रे तत्र कण्टकयुक्तेषु इति तथा आरभ्य तत्र अवदत् इति प्रायशः तावत्पर्यन्तं भगिनि अथवा अथवा परिच्छेदं पूर्णतया कर्तुं शक्नोति चेत् अपि समीचीनमेव
कण्टकयुक्तेषु पथिषु अश्वसु वा पादरक्षां विना सञ्चलितुम् अक्षमः सः क्षुधया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान् कण्टकयुक्तेषु पथिषु अश्वसु वा पादरक्षां विना सञ्चलितुं सः तस्य बहु दुर्दशा आसीत् राज्ञः बहु दुर्दशा आसीत् तस्य पदरक्षां न आसीत् अपि च पथम् अपि कण्टकयुक्तः आसीत् तत्र पथिषु अश्मसु अश्माः अपि आसीत् एतादृशं एतादृशं पथिषु कण्टकयुक्तेषु अपि च
एतादृशेषु पथिषु अश्मसु
एतादृशेषु पथिषु अश्मसु वा पादरक्षां विना चलितुं सञ्चलितुम् अक्षमः इत्युक्ते अशक्तः सः शक्तः नासीत् अशक्तः
तत्र पादरक्षां विना स्थाने तत्र तृतीया भवति चेत् किं भवति
पादरक्षया विना पादरक्षया विना सञ्चलितुं सञ्चालनं कर्तुं सञ्चलनं कर्तुम् अक्षमः सः शक्तः
पादरक्षाभ्याम् इति भवति वा महोदय
तदपि समीचीनमेव
पादरक्षाभ्यां विना द्वितीया द्विवचनमस्ति अतः सञ्चलितुं सञ्चलनं कर्तुम् अशक्तः सः शक्तः नासीत् सः क्षुधया पिपासया च पीडितः सः क्षुधायुक्तः आसीत् पिपासायुक्तः आसीत् सः क्षुधया पिपासया च पीडितः बहु कष्टितः 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 शब्दः समीचीनं वा महोदय
न जानामि किन्तु यत् जानाति तद् उपयुज्य वदतु अत्र कष्टकरं कष्टकरी परिस्थितिः आसीत्
कष्टेन पीडितः इति क्षुधया पिपासया पादरक्षा नास्ति कण्टकयुक्तयुक्तेषु अश्मयुक्तेषु कण्टकयुक्तम् अपि च अश्मयुक्तं पथम् आसीत् अतः सः पीडितः आसीत् कष्टेन पीडितः आसीत् सः कस्यचित् सरसः तीरे उपविष्टवान् कस्यचित् सरस् आसीत् तत्र सरोवरस्य तीरे उपविष्टवान् घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत् सः तस्य मन्त्री यः आसीत् सः बहु यदा यत्र कुत्रापि सः राजा गच्छति स्म तत्र तस्य मन्त्री अपि अनुगच्छति स्म अतः सः मन्त्री घोरायाम् आपदि अपि बहु सङ्कटकाले अपि अतीव घोरं सङ्कटम् आसीत् अत्र घोरे सङ्कटे अपि स्वस्य हितं स्वस्य हितस्य किं वदामि स्वस्य हितस्य
विलक्ष्य निर्लक्ष्य
दुर्लक्ष्य तस्य हितं दुर्लक्ष्यं कृत्वा परित्यज्य स्वस्य हितं परित्यज्य इत्युक्ते स्वस्य हितं दुर्लक्ष्यं कृत्वा तस्य मन्त्रीं यः अनुगच्छति स्म तं मन्त्रीं दृष्ट्वा सः अश्रून् अमुञ्चत् अपि च अवदत् भोः मन्त्रिन् मम राज्यं नष्टम् मम राज्यं तु नष्टः मम राज्यं तु नष्टम् अभवत् सर्वाः सम्पदः नष्टाः सर्वा यत्र यत्किमपि सम्पत् आसीत् या किमपि सम्पद् आसीत् अपि च या किमपि धनम् अपि च ऐश्वर्यम् आसीत् मम राज्ये तत् सर्वं नष्टम् अभवत् महत् कष्टम् आपतितं महत् कष्टं कष्टे सति इतः परं जीवितुं न इच्छामि इतः परं इतः परम् इत्युक्ते
अग्रे
अग्रे इतः अग्रे धन्यवादः भगिनि इतः अग्रे अहं जीवितुं न इच्छामि कथमपि मरिष्यामि एव तस्य मरणस्य इच्छा भवति अतः मरणे इच्छा भवति क्षम्यतां तस्य मरणे इच्छा भवति अतः सः वदति कथमपि अहं मरणं स्वीकरोमि इति
स्वीकरिष्यामि समीचीनं भगिनि धन्यवादः
महोदय भगिनि एकवारं तत्र घोरायाम् आपदि अहं पूर्वस्मिन् कक्षा न आगतवती महोदय किञ्चित् अत्र एकं वाक्यं तत्र अहं न अवगच्छामि घोरायाम् आपदि अपि आत्मानः हितं आत्मनं हितं परित्यज्य अनुगतं आत्मनः हितं परित्यज्य इति मन्त्रिणः विषय भवति वा तत्र
तत्र किम् अस्ति तत्र राजा किं करोति राजा मुञ्चन् तत्र सः राजा अवदत् मुञ्चन् अवदत् किं मुञ्चन् अवदत् अश्रूणि मुञ्चन् अवदत् राजा कं पश्यन् सः एतत् सर्वं करोति मन्त्रिणं पश्यन् सः तत् दृष्ट्वा सः वदति इदानीं तत्र कीदृशमन्त्री सः तत्र अस्ति अनुगतः मन्त्री अस्ति तत्र राज्यस्य राजा अस्ति राजानम् अनुगतः मन्त्री सः सः मन्त्री अनुगतः किन्तु तत्र तस्मात् प्राक् किम् अस्ति परित्यज्य तत्र तस्य कोऽपि लाभः नास्ति खलु तत्र तस्य हितं वा अहितं वा किमपि तस्मिन् विषये तस्य चिन्तनं न सः न कृतवान् खलु तत्र राजा अस्ति राज्ञः कष्टः इदानीम् अस्ति अतः राज्ञी तस्य श्रद्धा अस्ति अतः तत्र यत्किमपि राज्ञः कृते किं करणीयं तदेव सः करोति खलु अतः तत्र घोरायाम् आपदि तादृशम् आपद् घोरा आपद् इदानीम् अस्ति अतः तादृशसन्दर्भे तस्मिन् सन्दर्भे अतः घोरायाम् आपदि अपि स्वस्य हितं परित्यज्य तृणीकृत्य
तत्र तस्य अनुगच्छति तम् अनुगच्छति तत्र घोरायाम् आपदि घोरायां कथं भवति
आपदि स्त्रीलिङ्गम् अस्ति अतः घोरा इति
घोरः भवति किल महोदय,
स्त्रीलिङ्गपदम् अस्ति,
तत्तु सत्यं, तत्तु सत्यं,
घोर इति
अस्ति भगिनि, स्त्रीलिङ्गे अस्ति,
विशेषणम् इति कृत्वा तत्र स्त्रीलिङ्गे घोरा इति आकारान्तपदं भवति खलु,
अस्तु महोदय, अस्तु क्षम्यतां,
तत्र लता, लता लतायां
घोरः शब्दः घोरा इति भवति वा,
न तत्र घोरः इति तत्र विशेषणरूपेण भवति, अतः तत्र त्रिषुलिङ्गेषु भवति, तत्र घोरः घोरा घोरम् इति,
अस्तु महोदय क्षम्यता, धन्यवादः,
तावदेव, हा समीचीनं भगिनि, अस्तु अस्तु, अन्यप्रश्नः अस्तु, इदानीं तत्र अग्रे लक्ष्मी भगिनी अग्रे करोति वा,
आं महोदय, दीनं विलपन्तं राजानं दृष्ट्वा मन्त्री तं सान्त्वयन् अवदत् उक्तवान् राजन् अलं दुःखेन राज्यं विनष्टम् इति भवान् मा चिन्तयतु, दीनं
तत्र राजा कीदृशं, राजा कीदृशं,
राजा रुदन्तं राजानं दृष्ट्वा मन्त्री
तस्य समाधानं कर्तुं,
तस्य समाधानं कर्तुं
वदति, अथवा उक्तवान्
अवदत्
अवदत् समीचीनं, अवदत्
राजन् दुःखं मास्तु, राज्यं विनष्टं नष्टं भवति इति मा चिन्तयतु, धीमन्तः गते शोकं न कुर्वन्ति, धैर्यवन्तः प्रवृत्तः घटनां शोकं घटनां दुःखं न प्रकटयन्ति,
पुनः एकवारं भगिनि,
धैर्यवन्तः प्रवृत्ता प्रवृत्तायां घटनायां
समीचीनं,
घटनायां दुःखं न प्रकटयन्ति, समीचीनं,
अथवा तत्र प्रवृत्ता तत्र प्रवृत्तायाः घटनायाः विषये तदपि अस्ति समीचीनमेव, तस्मिन् विषये शोकं न प्रकटयन्ति
अथवा ते वर्तमानम् एव चिन्तयन्ति, ते अधुना यत् करणीयं
तस्मिन् विषये एव
चिन्तनं कुर्वन्ति परिश्रमेण कर्मणा च
परिश्रमेण कर्मणा इति तत्र
परिश्रमेण कर्मणा च इति ते अभीष्टं साधयन्ति, यत् करणीयं तत् कर्मणा स्वस्य
यत् इच्छन्ति ते इच्छन्ति ते
यद् इच्छन्ति ते
परिश्रमं कृत्वा तत् प्राप्नुवन्ति, इष्टं प्राप्नुवन्ति
अतः भवान् दुःखार्थः मा भवतु,
दुःखितः मा भवतु,
अतः भवान् दुःखितः मा भवतु, विनष्टस्य राज्यस्य पुनःप्राप्तये उपायं चिन्तयाव, राज्यं कथं प्राप्तव्यम् इति विषये भवान् चिन्तयतु,
अथवा आवां चिन्तयाम
इति विषये आवां चिन्तनं करवाव,
अस्तु करवाव, अस्तु समीचीनं, अस्तु अस्तु अग्रे, धन्यवादः भगिनि, अस्तु अग्रे वंशीसुधा भगिनी किञ्चित् वदति वा अग्रे, अग्रिमवाक्यत्रयं स्वीकृत्य
प्रयत्नं करोमि महोदय.
अस्तु भगिनि.
यः अस्माकं शत्रुः राजा अस्ति तस्यापि वैरिणः वर्तन्ते. अत्र मन्त्री वदति वा राजा?
मन्त्री वदति
राज्ञः प्रति सः वदति राजानं प्रति वदति यः शत्रुः आसीत् तस्यापि वैरिणः इति अन्यत् पदं किम् अस्ति? विरोधः
जनाः. रिपवः
रिपवः आं महोदय.
अरयः
सत्यं. रिपवः नो चेत् अरिः इति अरेः सन्ति.
अरयः
अरयः अस्तु. हरिशत्रुः
हरिः हरयः हरिः हरयः
आम् अरयः सन्ति. तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः. अस्तु, मन्त्री वदति तत्र वयं तेषां साहाय्यं नीत्वा नो चेत्
साहाय्यं स्वीकृत्य
पुनः अपि युद्धं करिष्यामः. अपि च नष्टं राज्यं पुनः न लप्स्यते इति कः अत्र निश्चयः? मन्त्री वदति एतादृशी स्थितिः पुनः न आगच्छति, किमर्थम् अस्मिन् विषये पुनः चिन्तनीयं? नष्टः राज्यः पुनः आगच्छ वयं
तत्र प्राप्तुं शक्नुमः वयम् इति प्राप्तुं शक्नुमः इति चिन्तयामः, न तु न प्राप्नुमः इति एव. तत्र न प्राप्नुमः तत् सः निश्चितः इति
कुर्मः, यतोहि राज्यं पुनः प्राप्तुं शक्नुमः. अपि च अत्र शीघ्रं निश्चयं न कुर्मः इति मन्त्री वदति.
सत्यं.
भगवतः कृपया भवान् राज्यं सम्पदः यशश्च विना विलम्बं प्राप्स्यति. भगवतः कृपया भवान् राज्यं विलम्बं तत्र तस्य अन्वयः भवति इति मम पश्यति. विना विलम्बं प्राप्स्यति. अस्तु, मन्त्री वदति भगवतः देवस्य कृपः भवतः अस्ति, अतः चिन्ता मास्तु. यत् सम्पद्
तत्र भगवतः देवस्य कृपा अस्ति.
कृपा अस्ति. यत् सम्पदः भवान् नष्टः जातः तस्य अपि च यशः अपि भवान्
सम्पदः जाताः नष्टाः जाताः
स्त्रीलिङ्गस्य सम्पदः जाताः. अस्तु, क्षम्यतां महोदय. सम्पदः जाताः अपि च यशः यत् भवान् नष्टः यशः जातः.
यशः तु तत्र यशः यशस् इति नपुंसकलिङ्गे इति मन्ये तत्र.
ओ,
इति वा यशस् इति चिन्तयामि. यशः यशसि यशांसि वा न स्मरामि. तत्र कोऽपि जानाति वा यशः किम् अस्ति इति?
मनः शब्दवत् वा महोदय? यशः यशांसि
इति चिन्तयामि.
यशस् अस्ति न महोदय, सकारान्त.
नपुंसकलिङ्गमेव न वा? अस्तु तद् न श्रुतवान्. अस्तु,
यशांसि भवति वा द्वितीया विभक्ति? यत्
यशः यशसि
भवतः, परन्तु पुन् एकवचने एव भवति किल महोदय? यशः इति यशां
अत्र यशः इति एव स्वीकृतं. सत्यं.
यशः यत् भवान्
भवतः आसीत् भवतः यशः यः यत् नष्टमासीत्
नष्टमासीत् तस्यापि शीघ्रमेव भवान् प्राप्नुमः इति मन्त्री.
तदपि भवान् शीघ्रमेव
प्राप्नोति.
समीचीनम्
इति भवति. अपि च तत्र लङ् भविष्यत्काले अस्ति.
तदपि समीचीनम्. अस्तु, अतः
चिन्ता मा करोतु इति मन्त्री राजानं प्रति वदति महोदय.
समीचीनं भगिनि. अस्तु, धन्यवादः. अस्तु अस्तु, श्रीप्रिया भगिनी, इदानीं तत्र भवती गतवर्गे अपि एतदेव कृतवती, क्षम्यतां भगिनि.
अत्र महोदय अस्माकं वैरिणः वैरी अस्माकं मित्रम् इति तत्त्वं सः
स्वीकृतमस्ति. सत्यं भगिनि, वैरिणः वैरी, वैरिणः वैरी अस्माकं मित्रः भवितुम् अर्हति इति. समीचीनं भगिनि, सत्यं. किन्तु तत्र लोके सर्वदा तद्भवति न वा इति न जानामि. किन्तु तत् स्वीकृतमस्ति. अस्तु, श्रीप्रिय भगिनी अग्रे.
मन्त्रिणः सान्त्वनोचसा तुष्टः राजा दुःखं परित्यज्य उदतिष्ठत्. मन्त्रिणः समाधानवचनानि श्रुत्वा राजा उत्साहेन स्थितवान्. अन्यैः राजभिः सख्यं विधाय पुनरपि युद्धं कृतवान्. यथा भगिनी उक्तवती, वैरिणः वैरिणा सह वा वैरि वैरिणः वैरिणा सह वैरिभिः सह सख्यं विधाय.
समीचीनं, वैरिणः वैरिभिः सह
मैत्रित्वं स्थाप्य सः पुनः युद्धार्थं युद्धं कृतवान्. अनन्तरं जयं राज्यं प्रति युद्धे जयम् अपि प्राप्तवान्. अतः पुनः स्वराज्यमपि प्राप्तवान्.
समीचीनं.
सहायकृद्भ्यः राजभ्यः प्रभूताम् उपायनादिकं दत्त्वा तान् पोषितवान्. ये तस्य युद्धार्थं ये तस्य साहाय्यं कृतवन्तः तेषां तेभ्यः पुरस्कारं दत्त्वा तेषाम् आदरम् अपि कृतवान्, सम्माननमपि कृतवान्. पुनः मन्त्रिणा सह सन्तोषेण राज्यपरिपालनं.
समीचीनम्, अस्तु, धन्यवादः भगिनि. अस्तु, समीचीनं. एषः पाठः गतवर्गे कृतः, किन्तु इदानीं तत्र स्वशब्दैः यदि वदामः तत्र अवगमनं तत्र किञ्चित् वर्धते खलु. अतः एषः अभ्यासः स्वीकृतः. अस्तु, तर्हि इदानीम् अग्रे सरामः. तत्र अभ्यासः यः अस्ति तत्र आरम्भं कुर्मः. तत्र अस्तु, सुजाता भगिनी आरम्भं करोति वा अभ्यासः? सुजाता भगिनी.
आं महोदय.
अस्तु,
तत् साङ्ख्याकं गीताश्लोकं परिशील्य कोष्टकात् युक्तं रूपं चित्वा रिक्तस्थानं पूरयत. आत्मानम् उद्धरेत्.
अत्र प्रायः तत्र भगवद्गीताश्लोकं द्रष्टव्यमस्ति. तत्र उद्धरेत् इति क्रियापदम्, आत्मानम् इति विभक्ति का तत्र? अतः द्वितीयविभक्ति अस्ति चेत् कर्मपदम्.
आत्मना आत्मानम् उद्धरेत्.
हा, अस्तु, समीचीनं भगिनि. हा, आत्मना इति तृतीय, आत्मना आत्मानम्
आत्मनम् उद्धरेत्. आत्मानम्
उद्धरेत्. समीचीनं भगिनि, आत्मना आत्मानम् उद्धरेत्. समीचीनं भगिनि, अस्तु.
इमे देहाः अन्तवन्तः अन्तवान् अन्तः. अन्तवन्तः इमे देहाः अन्तवन्तः.
समीचीनमेव. कथं भवती जानाति तत् समीचीनम् इति?
श्लोकं
दृष्ट्वा इति. अस्तु, किन्तु यदि श्लोकं न जानाति तत्र इमे देहाः इति अस्ति, तत् दृष्ट्वा किं तत्र इमे देहः देहः इति वचनं किं
देहः बहुवचनमस्ति
बहुवचनमस्ति अतः
अतः अन्तवन्तः बहुवचनमस्ति
केवलम् अन्तवन्तः बहुवचनम् अस्ति अतः
इमे देहाः अन्तवन्तः
इति समीचीनं भगिनि अस्तु धन्यवादः अग्रिममपि करोतु तदनन्तरम् अन्य कोऽपि करोति
योगः कौशलं योगः कर्मसु
पूर्वमपि आगतं तत्र कर्म इति पदस्य बहुवचनं कर्म यत्र यत्र निपुणता तादृशम् अस्ति तत्र सप्तमी भवति यस्मिन् विषये कौशलम् अस्ति तत्र योगः इत्युक्ते किं कौशलं कस्मिन् विषये कर्मसु कौशलम् इति धन्यवादः भगिनि समीचीनं
धन्यवादः
भगिनि अस्तु इदानीम् अग्रे तत्र नरेश महोदय अग्रे करोति वा
महोदय तत्र अन्तवन्तः इति शब्दः अन्तवत् भवति वा
अन्तवत् इति प्रायशः अस्ति सत्यं भगिनि
पुल्लिङ्गशब्द देहाः इति अन्तवत् देहाः अन्तवन्तः
देहः अन्तवान् इति प्रायशः देहः अन्तवान् देहः अन्तवान् देहाः अन्तवन्तः इति मन्ये भगिनि
शान्तिः नास्ति शान्तिः नास्ति अभावयतः शान्तिः नास्ति
अभावयतः इति वा अस्तु तत्र श्लोकस्य प्रायशः ज्ञानं अभावयतः
शान्ति नास्ति अभावतया पञ्चमी विभक्ति
हा सत्यं 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 महोदय अभावयतः
शान्तिः
तत्र प्रायशः तत्र पञ्चमी नास्ति महोदय तत्र अहं चिन्तयामि तत्र अभावयतः
इति अस्ति
सत्यं भगिनि किन्तु तत्र विभक्ति का इति चिन्तयामि तत्र अभावयतः इति अस्ति चेत् तत्र किं भवति अभावयत् इति प्रायशः प्रातिपदिकम् अभावयतः इति तत्र भवतः इति कुत्र भवति पञ्चमी षष्ठी मध्ये खलु अतः तत्र पञ्चमी वा षष्ठी वा अपि भवितुम् अर्हति
परन्तु अभावः अस्ति ततः शान्तिः नास्ति अहं चिन्तयामि
अस्तु तत्र श्लोकं द्रष्टव्यम् अस्ति अस्तु किन्तु अभावयतः इति समीचीनमेव अस्तु श्लोकं दृष्ट्वा निर्णयं कर्तुं शक्नुमः महोदय किन्तु न जानामि
श्लोके तु अस्ति
अभावयतः एव समीचीनम् अभावयतः इति समीचीनं किन्तु तत्र विभक्ति का इति प्रश्नः तत्र पञ्चमी वा षष्ठी वा इति
तत्र शान्ति तत्र श्लोके तु शान्ति इति पदस्य अन्वयः भवति महोदय अभावयतः च न शान्तिः भवति इत्युक्ते तत्र षष्ठी एव भवितुम् अर्हति इति मम चिन्ता
अस्तु तेषां शान्तिः नास्ति इति वा
आम् 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 सत्यं महोदय अयुक्तः बुद्धिः नास्ति अयुक्तः भावना नास्ति अभावयतः शान्तिः नास्ति अशान्तयः कुतः सुखम् इति
चिन्तितं मया तत्र षष्ठी इति किन्तु अस्तु षष्ठी अस्तु
तत्र अभावयत् इति पुंलिङ्गषष्ठी षष्ठी एव एकवचने
षष्ठी अस्तु समीचीनं
शान्तिः अशान्तस्य
अस्तु भगिनि धन्यवादः अस्तु नरेश महोदय अग्रे किन्तु पदं तु समीचीनमेव अभावयतः एव समीचीनं अग्रे
यः इन्द्रियाणि नियम्य आरभते सः विशिष्यते इन्द्रियाणि नियम्य नियम्य
तत्र किं तत्र केन केन इति केन केन नियम्य मनस इति मनसा समीचीनं भगिनि मनसा तत्र प्रायशः सङ्ख्या समीचीना नास्ति तत्र सप्तदश इति दत्तं किन्तु सप्तमश्लोकः सप्तमश्लोकः सत्यं तृतीयाध्यायः सप्तमश्लोकः अग्रिमं महोदय
ये बहुवचन अस्ति ये बहुवचन अभ्यसूयन्तः
हा समीचीनं महोदय हा
अभ्यसूयन्तः हा
मे मतं नानुतिष्ठन्ति समीचीनं महोदय अस्तु हा तत्रैव तत्र अग्रिमं सः एव श्लोकः
नष्टान् विद्धि नष्टान् विद्धि तदपि
कस्य नष्टम्
तत्र प्रायः द्रष्टव्यमस्ति अस्तु समीचीनं महोदय अस्तु अग्रे
अभ्यसूयन्तः इत्युक्ते किम्
अभ्यसूयन्तः तत्र
असूयन्तः अभि असूयन्तः वा
न न अभ्यसूयन्तः इति तत्र मे मतं नानुतिष्ठन्ति तत्र
ये अभ्यसूयन्तः मे मतं न तिष्ठन्ति तान् अचेतसः नष्टान्
हा तत्र श्लोकं द्रष्टव्यमस्ति न जानामि इदानीम्
असूयाविष्टाः इति अस्ति महोदय अभ्यसूयन्तः असूयाविष्टाः पश्यन्ति अस्मि
किन्तु
तत्र अस्तु तत्र समानार्थकः वा इति तद् न स्मरामि तावत् अस्तु 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 अग्रे किं किं भगिनि तत्र
प्रथमपुरुषस्य बहुवचनरूपमस्ति अभि अपि च असूयन्तः
एकवचनं रूपं किम् आसीत्
अभियोगः असूयति असूयति किल तत्र
न क्रियापदं नास्ति खलु भगिनि एतत्
क्रियापदं भवितुम् अर्हति किल न
भवति किन्तु तत्र
अभि इति उपसर्गः क्रियापदस्य एव
सत्यं सत्यं किन्तु अत्र तु नामपदमेव अस्ति खलु अभ्यसूयन्तः इति नामपदम् अस्ति खलु
भवति वा न जानामि
तत्र शत्रन्त अस्ति महोदय
पठन् पठन्तो पठन्तः
तत्र अभि असु शत्रु अस्ति
सत्यम् अभ्यसूयन्
अभ्यसूयन् अभ्यसूयन्
तौ
तौ अभ्यसूयन्तः इति भवति
यस्य असूया बुद्धिः अस्ति सः असूयन्
असूयन् अस्तु
तर्हि
अस्तु धन्यवादः अस्तु अग्रे शोभा भगिनी अग्रे
अग्रे ज्ञानं नित्यवैरिणा कामेन आवृतं भवति तत्र ज्ञानिनः ज्ञानिने ज्ञानिनाय इति दत्तं ज्ञानिनः इति षष्टिविभक्तौ भवति तत्र ज्ञानिनः ज्ञानं नित्यवैरिणा कामेन आवृतं भवति
ज्ञानिनः अस्तु
ज्ञानिनः ज्ञानं नित्यवैरिणा तत्र तृतीया भवति नित्यवैरिणा कामेन कामा कामस्य कामा इति नित्यवैरि
अस्तु ज्ञानस्य नित्यवैरि अस्ति कामः अस्तु
नित्यवैरिणा कामेन आवृतं भवति
आवृतं भवति समीचीनं भगिनि अस्तु अतः तत्र ज्ञानिनः इति अस्तु अग्रे
प्रकृतिसम्भवाः गुणाः अव्ययं तत्र निबध्नन्ति इति देहिनः देहिश्चु देहिनम् इति प्रकृतिसम्भवाः गुणाः अव्ययं देहिनम् इति भवनीयं तत्र निबध्नन्ति इति अस्ति तत् किमर्थं न जानामि न दृष्टवती निबध्नन्ति इति क्रियापदम् अस्ति
तस्य कर्मपदम् अस्ति
तत्र कर्मपदं तत्र देहिनम् एव भवति
सत्यं भगिनि तत्र देही इति प्रथमविभक्तिरूपं देही इत्युक्ते यस्य देहः
यस्य देहः
सः तु आत्मा इति अतः अव्ययम् इति
गुण अव्ययं देहिनम्
न अव्ययं देहिनं निबध्नाति अव्ययः आत्मा अस्ति तम् आत्मानम् अव्ययम् आत्मानं देहिनं प्रकृतिसम्भवाः गुणाः निबध्नाति इति तत्र देही इत्युक्ते आत्मा इति मन्ये भगिनि
तत्र मम चिन्तनं तु अव्ययं देहस्य कृते नास्ति इति मन्ये
देहः अव्ययम् इति न भगिनि किन्तु अत्र देहस्य विषयः नास्ति यस्य देहः अस्ति
देहिनः
यस्य देहः अस्ति सः देही नकारान्तपदं देहिन् आत्मनः देहः अस्ति अतः आत्मा देही इति वदामः आत्मभिन्नम् अस्ति देहः भिन्नः यस्य देहः सः देही इदानीं सः आत्मा देही अतः आत्मा तु अव्ययः अतः अव्ययम् आत्मानं देहिनं निबध्नाति देहिनं निबध्नाति अतः तत्र देहम् इति न देहिनम् इति अस्तु अग्रे अपि
सर्वस्य च अहं सन्निविष्टः तत्र दृष्टवती हृदि इति भवति किन्तु सर्वस्य च अहं सन्निविष्टः तत्र हृदिषु इति तु न भवति एकवचने भवनीयम्
एकवचने सर्वस्य अस्ति इति कृत्वा तत्र एकवचने
अतः अपि हृदि इति भवति हृदि सन्निविष्टः सप्तमी विभक्ति
हृद् इति शब्दः महोदय हृद् इति भवति वा हृद् इति भवति वा
हृद् सुहृद् इति एव भवति इति मन्ये सुहृत् अपि अस्ति सुहृद् इति अपि
तकारान्त एव तत्र हृदः तत्र हलन्तशब्दानां बहुवचनरूपं दृष्ट्वा एव तत्र प्रातिपदिकस्य अन्तिमवर्णः निर्णेतुं शक्नुमः इति खलु अतः तत्र हृत् अस्ति चेदपि एकवचने तत्र प्रायशः बहुवचने हृदः इति एव
सुहृद्
इत्यस्य सुहृदि सुहृदोः सुहृत्सु इति भवति
अतः तत्र सत्यं सत्यं तत्र सु त्यजामश्चेत् तत्र हृद् योगः सुयोगः हृद् एव सुहृदः इति सत्यं
सत्यं सत्यं महोदय
अस्तु अस्तु समीचीनम् अस्तु भगिनि अतः तत्र हृदि सर्वस्य च अहं हृदि
सन्निविष्टः
स्थितः इति अस्तु समीचीनं
महोदय तत्र कीदृशपदमिति अपि वक्तव्यं चेत् सम्यक् भवति नपुंसकलिङ्गे दकारान्तशब्दः
सत्यं भगिनि अस्तु
भगिनि
अस्तु वेदा भगिनि इदानीं भवत्याः उत्तरदायित्वम् अस्ति सर्वं वदतु
तत्र सन्निविष्टः इति पदं तत्र सम् अस्ति वा अथवा सम् एव किल संनिविष्टः
तेरोनुनासिकेन
न परन्तु
क्षम्यतां
सम् अस्ति चेत् नकारः कथं भवति
तदनन्तरं
नकारः अस्ति किल अतः पूर्वस्य मकारस्य मूनुस्वर इति अनुस्वरः तदनन्तरं
तत्र सम् योगः नी योगः
विष्टातुः
अस्तु इदानीं वेदभगिनी
यत् दानं दीयते तत् सात्विकं यत् दानं दीयते अनुपकारिणे अनुपकारिणाय अनुपकारिणेषु यत् दानं दीयते तत् सात्विकम् अनुप अनुपकारिणे चतुर्थी विभक्ति न
दानमिति अस्ति खलु अतः समीचीनं भगिनि अनुपकारेण इति प्रातिपदिकम्
चतुर्थी विभक्ति अस्ति तत्र अज्ञानसम्भूतं संशयं दाच्छिन्दि अज्ञानसम्भूतं संशयं ज्ञानासिना ज्ञानासेना ज्ञानासीन छिन्दि ज्ञानासिन् इति प्रातिपदिकम् इति मन्ये ज्ञानासिन् छिन्दि ज्ञानासेना न ज्ञानासीना अपि न ज्ञानासिना वा ज्ञानासिना अज्ञानसम्भूतं संशयं ज्ञानासिना छिन्दि ज्ञानासिना इत्युक्ते
ज्ञानासिना
इत्युक्ते किं भवति ज्ञानासिना
ज्ञानरूप तत्र आयुधम् अस्ति तत्र तत्र किं स्वर्ण इति ज्ञानरूप ज्ञानरूप तृतीय माध्यमं तत्र संशयस्य संहारं करोतु केन तत्र कः आयुधं किम् इत्युक्ते तत्र ज्ञानरूप
ज्ञानरूप आयुधमस्ति वा तत्र अग्रे अक्षरम् इत्युक्ते प्रथमा विभक्ति नपुंसकलिङ्गपदम् अस्ति वा अक्षरम्
हा किन्तु अक्षरम् इत्युक्ते तत्र अक्षरम् अक्षरं प्रथमविभक्ति एव अहम् अक्षरं तत्र अक्षरम् अस्मि अहम् इति
अहम् अक्षरम् अस्मि गिरां गिरेः गिरस्य कस्य इति उक्तं शक्यते वा गिरस्य न अक्षरं गिरां गिरेः किमर्थं किम् अस्ति वदतु गिराम् आं बहुवचने अस्ति वा तत्र न
तत्र
षष्टि
बहुवचनं गिरां बहुवचनं गिरस्य एकवचनं गिराम् ओ तत्र प्रातिपदिकं किं गिरि गिरे
दत्तं महोदय महर्षिणां गिराम् इत्युक्ते षष्टि बहुवचन
षष्टि बहुवचनं गिराम्
गिरां गिरां गिराम् इत्युक्ते तत्र यत् उक्तं गिरिः नास्ति तत्र यत् उक्तम् उक्तं
यत्
उक्तं तादृशं तत् पदम् इति अथवा तत्र मन्त्रं वा तत्र तादृशम् अर्थे तत्र गिराम् इति
अग्रे अग्रे पठामि वा आत्मैव आत्मैव स्पेस् रिपुः आत्मा एव आत्मा एव आत्मनः रिपुः
समीचीनम् अस्तु
आत्मनः रिपुः षष्ठी विभक्ति आत्मनः आत्मन् शब्दस्य षष्ठी विभक्ति आत्मनः रिपुः बहूनां डाश् अन्ते ज्ञानवान् मां प्रपद्ये बहूनां अन्ते ज्ञान बहूनां जन्मस्य जन्म जन्मानां
बहूनां
जन्मानाम् अन्ते ज्ञानवान् मां प्रपद्ये
बहुवचनं
षष्ठी बहुवचनं
समीचीनं जन्मना
जन्मनाम जन्मानं
जन्मनाम तत्र जन्म इति तत्र जन्म पुनः तत्र जन्म जन्मनि जन्मानि इति जन्मनाम् इति अस्तु समीचीनं भगिनि अस्तु अग्रे
बिन्दु पुनः एकवारं वदतु महोदय प्रथमबिन्दु
आत्मना वा
हा आत्मना आत्मानम् उद्धरेत्
पुनः वदतु महोदय
आत्मना माध्यमम् आत्मना आत्मानम् उद्धरेत् आत्मा अस्ति आत्मनः उद्धारं कथं करणीयं माध्यमं किम् आत्मा एव माध्यमम् अतः आत्मना आत्मानम् उद्धरेत् इति अस्तु भगिनि हा अस्तु अस्तु तर्हि अग्रे सरामः तर्हि तत्र अग्रे हा शुभदा भगिनी अग्रे अग्रिमपुटे अभ्यासम् आरम्भं करोति वा भगिनि
महोदय अर्धवाक्य वाक्यद्वयं योजयित्वा एकं वाक्यं लिखत पृच्छामि मां तस्य उत्तरम् अत्र दत्तमस्ति पृच्छामि पृच्छामि त्वाम् अत्र माम् अस्ति उत्तरे तु त्वाम् अस्ति
तत्र प्रायशः मुद्रणदोषः अस्ति अहं पृच्छामि त्वां पृच्छामि
पृच्छामि त्वां धर्मसम्मूढचेताः इति दत्तमस्ति अतः ओके नरः यथा नवानि वासांसि गृह्णाति
भगिनि प्रायशः सुलभः किं भवति इत्युक्ते सुलभं किं भवति इत्युक्ते तत्र स्तम्भद्वयम् अस्ति खलु दक्षिणस्तम्भः अस्ति वामस्तम्भः अस्ति खलु तत्र यदि वामस्तम्भं दृष्ट्वा कुर्मः कष्टकरम् अस्ति इति मन्ये यतोहि तत्र सङ्ख्या न जानीमः अतः किं कुर्मः तत्र दक्षिणस्तम्भं स्वीकृत्य तत्र श्लोकस्य भागमपि अस्ति सङ्ख्या अपि अस्ति
अत्र देही तथा नवानि शरीराणि संयाति
संयाति समीचीनम् अस्तु
कर्मण्येवाधिकारस्य तत्तु वयं सर्वे जानीमः
मासासि जीर्णानि यथा विहाय नवानि गृह्णानि गृह्णाति
देही तथा नवानि शरीराणि संयाति देट् इस् ट्रू अपि च अग्रिममपि कर्मण्येवाधिकारस्ते मा फलेषु कदाचन
सत्यम्
अपि च अग्रिममपि आत्मना आत्मानम् उद्धरेत्
अस्तु भगिनि अस्तु तत्र अभ्यासः सुलभः आसीत् भवत्याः कृते अस्तु अस्तु अग्रिमं करोतु तदनन्तरम् अन्य कोऽपि करोति
पञ्चमं वा अहं प्रयत्नं करोमि महोदय यज्ञेन प्रसविष्यध्वम् अहं न जानामि महोदय
एषः वा इति
एषः वा इष्ट कामदुक् अस्तु
इति मन्ये भगिनि तत्र श्लोकं द्रष्टव्यमस्ति नो चेत् तत्र केवलं भागं दृष्ट्वा न वक्तुं शक्नुमः
तत्र यस्य कस्यापि अभ्यासः अस्ति चेत् सुलभं भवति
सत्यं भगिनि अस्तु अस्तु अग्रे लक्ष्मी भगिनी करोति वंशी सर भगिनी वदतु
तत्र मम एकः संशयः महोदय तत्र पुरुषन् पुटे बहूनां जन्मनाम् इति भवति जन्म इति तत्र पुल्लिङ्गशब्दः अपि
न न भगिनि न जन्म इति नपुंसकलिङ्गपदं तत्र कर्म इव जन्मनि अतः जन्मनाम इति
जन्म जन्मनि जन्मानि वा नपुंसकलिङ्गशब्दः वा तत्र शब्दः अपि अस्ति महोदय
किन्तु अत्र तु तत्र नपुंसकलिङ्गरूपं पदम्
अस्तु
जन्मनाम यतोहि तत्र जन्मनाम इति अस्ति
जन्म जन्मनि जन्मानि इति अस्तु अपि च महोदय एतादृश एषः अभ्यासः तु किं जानीमः श्लोकमेव जानीमः किल तत्र हलन्तशब्दानाम् अभ्यासः नास्ति किल महोदय
तत्र अस्मिन् इदानीं यत् अस्तु अस्तु तर्हि
मम प्रश्नः
अस्तु 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 तर्हि त्यजामः
अग्रिमं श्लोकं वयं न जानीमः
सत्यं भगिनि सत्यमेव अस्तु सत्यमेव अस्तु तत्र अस्तु अतः तत्र किं कुर्मः तत्र
आत्मना जातम् आत्मना पञ्चमी अपि पञ्चममपि जातं षष्ठ यज्ञशिष्टाशिनः सन्तः तदस्ति सर्वकिल्बिषैः किल्
मुच्यन्ते उषा भगिनि एकनिमेषः अहं वदामि तत्र प्रायशः भवती यदि यदा वदति ते तत्र सर्वे लेखितुं शक्नुवन्ति किन्तु मास्तु यतोहि तत्र एकवारं सर्वे श्लोकान् यदि पश्यन्ति चेत् लाभः अस्ति तत्र एकवारं श्लोकान् दृष्ट्वा तत्र हलन्तपदानां हलन्तपदानि कुत्र कुत्र भवन्ति इति यदि किञ्चित् परिशीलनं भवति चेत् लाभः एव अतः यथा वंशीसुधा भगिन्या उक्तं तत्र इदानीं मास्तु सत्यमेव अतः त्यजामः किन्तु तत्र सङ्ख्यापि तत्र उत्तरमपि मा वदतु भगिनि
अस्तु महोदय
समीचीनं वा
अस्तु अस्तु महोदय
अस्तु अस्तु इदानीं तत्र वंशीसुधा भगिनी अग्रिमम् अभ्यासः तत्र आरम्भं करोतु भगिनि तर्हि
तृतीय अभ्यासः महोदय अस्तु ज्ञानिशब्दस्य उचितानि रूपाणि प्रयुज्य एतानि वाक्यानि रिक्तस्थाने लिखथ ज्ञानिन् अनन्तः आनन्दः अस्ति अस्तु ज्ञानिनि इति भवति
ज्ञानिनि
अनन्तः आनन्दः अस्ति द्वितीयमपि करोमि वा
महोदय
सर्वं समर्पयति ज्ञानीन् समर्पयामि अस्तु ज्ञानी सर्वं सर्वं समर्पयामि इति अस्ति ज्ञानी इति भवति ज्ञानी सर्वं समर्पयामि वा
ज्ञानिने
ओ अस्तु चतुर्थी
दान इति अर्थम् एव अस्ति अतः तत्र समर्पयामि इति अतः चतुर्थी
अस्तु महोदय ज्ञानिने सर्वं अस्तु अवगच्छामि तत्र परन्तु दादा तु नास्ति किल महोदय परन्तु
तत्र समर्पयामि तत्र तस्मै तस्मै समर्पयामि इति
अस्तु महोदय ज्ञानिने सर्वं समर्पयामि अस्तु
समीचीनम् अस्तु अग्रे लक्ष्मी भगिनी
ज्ञानिना उपसर्पामि इति वा
ज्ञानिनम् उपसर्पामि इति
महोदय तत्र उपसर्पामि अर्थः कः
उपसर्पामि तत्र
क्लोस् गो क्लोस्
ज्ञानिना इति
तत्र तत्र अनुसरामि इति अस्ति अनुसरामि अपि तत्र सर्पामि इति सर्वे जानन्ति खलु एषः धातुः तत्र सर्प इति धातुः सर्वे जानन्ति खलु जानन्ति वा सः धातुः सः धातुः किन्तु तत्र सर्प इति प्रसिद्ध शब्दः अस्ति खलु सर्पः इति नामपदम् अस्ति किन्तु क्रियापदमपि सर्प इति अस्ति
सर्पति
कोऽपि जानाति वा तत्र प्रसिद्धः किमर्थम् इति? सर्प, सर्प इति रूपं प्रसिद्धरूपम् अस्ति. कोऽपि वदति सर्प सर्प इति वदति, यं प्रति सः उक्तवान् सः अन्यः वदति सर्प वा अस्तु भवान् सर्पः भवतु इति शापं ददाति.
एवं वा महोदय?
न स्मरन्ति इति मन्ये. तत्र नहुषः इति राजा आसीत् खलु, तस्य कथायां तत्र सप्त ऋषयः
सर्पः भवतु इति भवति.
हा, तत्र अगस्त्य ऋषिः यः अस्ति सः मन्दं चलति, अतः तत्र नहुषः तम् उद्दिश्य वदति सर्प सर्प इति, शीघ्रेण गच्छतु इति. अतः अतः सः शापं ददाति, अस्तु सर्प भव भवान् एव सर्प भवतु इति.
ओहो उत्तमं महोदय.
अतः सर्प इति, हा, तत्र उपसर्प इति क्रियापदं, सर्प अपि क्रियापदमपि भवितुम् अर्हति.
समर्पयामि इत्यस्मिन् विषये एकः प्रश्नः महोदय. ज्ञानी ज्ञानिनिति ज्ञानिने इति उक्तं चतुर्थी विभक्तौ, तत्र द्वितीय अपि भवितुम् अर्हति वा? ज्ञानिन् अस्ति इति कृत्वा सर्वं समर्पयामि, ज्ञानिनम् इति न भवति?
न न भवति, न भवति खलु भगिनि. यतोहि तत्र पुस्तकं समर्पयामि इति तद् भवति चेत् तत्र साक्षात् पुस्तकमेव समर्पयामि खलु, तादृशं तत्र ज्ञानिनम् एव समर्पयामि. किन्तु
अहं समर्पयामि चेत् ज्ञानिनम्
इत्युक्ते इत्युक्ते भवति
शरणं?
न न तत् शरणम् इति भिन्नम् अस्ति. समर्पयामि इत्युक्ते यत् तत्र कस्मै समर्पयामि इति एव प्रश्नः.
कस्मै इति एव भवति,
कस्मै तत्र किमपि भवति. किन्तु यदि तत्र प्रश्नद्वयं तत्र भवति, समर्पयामि अस्ति चेत् कस्मै समर्पयति अपि किं समर्पयति इति. अत्र तु सर्वम् इति दत्तमस्ति, सर्वमेव कर्मपदम्.
ओ, ज्ञानस्य उद्भवाय सर्वं समर्पयामि इति वा?
अथवा न न, ज्ञानी तत्र ज्ञानी अस्ति, ज्ञानस्य विषयः नास्ति इदानीम्. अन्य कोऽपि अस्ति ज्ञानी, तत्र ज्ञानी इत्युक्ते तत्र देवः इति चिन्तयतु, अथवा भगवान् इति चिन्तयतु, अथवा गुरुः इति चिन्तयतु. सः ज्ञानी अस्ति, तस्मै ज्ञानिने अथवा भगवते अथवा देवाय सर्वं समर्पयामि. यद्यत् यत् करोमि, तत्र प्रसिद्धश्लोकः अस्ति खलु भगिनि, तत्र कायेन वाचा मनसेन्द्रियैर्वा नारायणाय चतुर्थी खलु.
तर्हि तत्र देवं समर्पयामि इति
न, देवं समर्पयामि इत्युक्ते साक्षात् तत्र देवं ददाति इति न वदामः खलु भगिनि.
टु थिङ्ग्स् भगिनि तत्र, वन् इस् गिविङ्ग् टु सम् वन्, वाट् आर् यु गिविङ्ग्, टु थिङ्ग्स् तत्र विषयद्वयम् अस्ति भगिनि.
अस्तु,
भगिनि तत्र खलु तत्र ददाति इति स्वीकरोतु, ददाति समर्पयामि इति स्थाने ददामि.
तत्र दाधातु अस्ति चेत् चतुर्थी एव भवति,
अत्रापि सः एव अर्थः भगिनि. सर्वं समर्पयामि तत्र धानम् एतद् यत् सर्वम् अस्ति तद् मम नास्ति इति चिन्तनं कृत्वा एतत् सर्वं भवतः एव इति खलु.
तर्हि महोदय, यदा समर्पणं भवति तादृशे अर्थे एव भवति वा?
अत्र समर्पणं
भवति चेत् दानम् इति,
दानम् इति अर्थे भगिनि, सत्यम्.
अस्तु, समर्पयामि
अर्पयामि इत्युक्ते किं?
तदेव, अर्पणं करोमि इति.
अर्पणम् इत्युक्ते ददामि एव खलु, किन्तु तत्र भावः केवलं तत्र ददामि धानक्रिये एव, किन्तु केवलं ददामि इत्युक्ते भिन्नम् अर्पयामि इत्युक्ते तत्र भावस्य भेदः अस्ति खलु तत्र केवलं तत्र मित्राय पुस्तकं ददामि अस्तु मित्राय पुस्तकं ददामि किन्तु किमपि अर्पयामि इत्युक्ते तत्र किमपि अन्यः भावः अस्ति खलु
अस्ति अस्ति समर्पणं करोमि इति अस्ति
अतः तत्र दानक्रिया एव किन्तु भावः भिन्नः इति कृत्वा तत्र समर्पयामि इति अस्ति किन्तु तत्रापि चतुर्थी एव प्रश्नद्वयं भवति तत्र किम् अर्पयामः अपि कस्मै अर्पयामः
अस्तु अस्तु सर्वं ज्ञानिने अस्तु
ज्ञानिने यथा तत्र सर्वं यत् करोमि तद् नारायणाय इति समर्पयामि इति खलु
आम् 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 महोदय
तदेव अत्र
अधुना अवगतं समर्पयामि इत्यस्य कृते चतुर्थी एव धन्यवादः
महोदय
एषः वाक्यः सम्यक् वा क्षम्यताम् एतत् वाक्यं क्षम्यता धर्मराजः द्यूतक्रीडायाय द्रौपदीं समर्पयति
सत्यं सत्यं
द्रौपदीं समर्पयति द्यूतक्रीडायाय द्रौपदीं समर्पयति
सत्यं 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 भगिनि अस्तु तर्हि तत्र समयः अपि जातः किन्तु तत्र केवलं किम् अर्ध अभ्यासः एव कृतः किन्तु
समापयामि वा
अस्तु भगिनि तत्र
ज्ञानी सुखी अस्ति अनन्तरं ज्ञानिना सह चर्चां करोमि ज्ञानिनः ज्ञानं सम्पादयामि ज्ञानिनः ज्ञानम् अपारम्
अपारं समीचीनं भगिनि अस्तु तावदेव अस्तु तर्हि अस्तु तर्हि तत्र सुजाता भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि
आं महोदय
अस्तु
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः
धन्यवादः
धन्यवादः महोदय
नमस्कारः
धन्यवादः महोदय नमस्कारः